एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। भारत भ्रमणे विद्यमानस्य राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामी छाने विदस्य भारतस्य प्रधानमन्त्रिणः नरेन्द्र मोदी इत्यस्य च मध्ये मेलवार्ता सम्भूता अस्ति। मेलवार्तायाः अनन्तरं प्रधानमन्त्रिणा मोदिना एक्स इति सामाजिक सञ्जाले सभापतिना लाबी छाने विदेन सह मेलवार्तया अधिकहर्ष सम्भूतोस्तीति उल्लिखितवान् उल्लिखितं वर्तते। प्रधानमन्त्री मोदी सभापतिना लामिछाने विदेन सह उभय देशयोः संयुक्त रूपेण समृद्धये भविष्यस्य च कृते सन्निकटतया सहकार्यं करिष्यते इति उल्लिखितवान् वर्तते। प्रधानमन्त्री मोदी प्रथम प्रतिवेशी राष्ट्रस्य नीतेः रूपेण नेपालः प्राथमिकतायां स्थापितो देशोऽस्तीति चर्चयन् द्वयोः देशयोः बौहायामिकं सम्बन्धम् अतिरिक्तोच्चतायां नेतुं नवीन सर्वकारेण सह सहकार्यं कर्तुम् उत्सुकता अस्ति उक्तवान् वर्तते। तदवसरे अनयोर्मध्ये नेपाल भारतयोः सम्बन्धस्य राष्ट्रपादलस्य भारतीय जनता दलस्य च सम्बन्धस्य द्वयोः देशयोः पारस्परिक हितस्य च विविधेषु विषयेषु विमृष्टम् आसीत्। मेलवार्तायाः पश्चात् राष्ट्रिय स्वतन्त्र दलस्य अध्यक्ष लामी छाने प्रधानमन्त्रिणा मोदिना सह जाता मेलवार्ता फलदायिनी सम्भूता अस्ति प्रावोचत्। सामाजिक सञ्जाले प्रतिक्रियां ददता सभापतिना लामी छाने विदेन नेपाल भारतयोः सम्बन्धस्य नवीनोच्चतायां प्रापणस्य सम्भावनायाः विषये विमृष्टमस्तीति उल्लिखितं वर्तते। तदवसरे भारतीय विदेश मन्त्री डॉ एस जयशंकर प्रधानमन्त्रिणः मोदिनः प्रमुख सुरक्षा परामर्शदाता अजित डोभल विदेश सचिवः विक्रम मिश्री नेपालस्य पक्षतः सभापतिः लामी छाने इत्यस्य पत्नी निकिता पौडेल राष्ट्रपा दलस्य नेतारो विपिन आचार्य दीपक बोहरा च नवदेहलीवर्तिनः नेपाली दूतावासस्य उच्चाधिकारिणश्च सहभागिनः आसन्। तत्पूर्वं सभापतिनः लामी छाने विदेन मंगलवासरे भारतीय गृहमन्त्रिणा अमित शाहेन विदेशमन्त्रिणा डॉ एस जयशंकरेण भाजपा दलस्य अध्यक्षेण नितिन नवीन इत्यनेन च सहापि मेलवार्ता विहिता आसीत्। भारतीय जनता दलस्य अध्यक्षस्य नवीन इत्यस्य निमन्त्रणायां सभापतिः लामी छाने भारतस्य पञ्चदिवसात्मकस्य भ्रमणस्य कृते गत सोमवासरे नवदेहलीं प्राप्तो वर्तते। राष्ट्रियसभाया ह्यस्तनोपवेशोऽपि प्रधानमन्त्रिणा बालेन्द्र सायन नेपाल भारतयोः सीमाक्षेत्रस्य विषये प्रदत्तायाः अभिव्यक्तेर्विषयमादाय प्रतिपक्षिदलानाम् अवरोधस्य पश्चात् स्थगितोऽस्ति। ह्यः सभायाः प्रारम्भमनु सांसदैः उत्थाय विरोधः प्रदर्शितः आसीत्। उपवेशे नेपाली कांग्रेस दलस्य सुनिल बहादुर थापा नेपाली कम्युनिष्ट दलस्य विष्णु बहादुर विश्वकर्मा एमाले दलस्य सम्झना देवकोटा च प्रधानमन्त्रिणः व्यक्तिर्विषये विरोधं प्रकटय्य प्रधानमन्त्रिणा सायेन दायित्वहीना तथ्यहीना च अभिव्यक्तिर्दत्तास्तीत्यतः प्रधानमन्त्रिणा क्षमा याचनीया इत्यत्र बलं दत्तवन्तः। उपवेशे सभाध्यक्ष नारायण प्रसाद दाहाल कार्यसूच्यां विद्यमानं वैकल्पिक विकास वित्त परिचालन सम्बद्धं विधेयकम् अग्रे वर्धयितुं सहयोगार्थम् अनुरुद्धवान् आसीत्। राष्ट्रिय सभायाः अपरोपवेशः ज्येष्ठ मासस्य षड्विंशे दिवसे मंगलवासरे दिवा सपादैकवादने वस्ता। चिकित्सा शिक्षायोगस्य चतुर्विंशतितमेन उपवेशेन चिकित्सा शिक्षायोगात् विगत समय क्रियान्विताः सर्वाः निर्देशिकाः कार्यविधिञ्च विधिगत प्रक्रियां प्रपूर्य पुनः क्रियान्वेतुं निर्णीतं वर्तते। प्रधानमन्त्रिणः बालेन्द्र शाहस्य अध्यक्षतायां ह्यः सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये उपविष्टेन उपवेशेन एकाशीत्युत्तर द्विसहस्रतम विक्रमवर्षीयस्य विधायनाधिनियमस्य पञ्चत्रिंशस्य प्रकरणस्य व्यवस्थायाःनुसारेण आयोगेन विगत समये क्रियान्विताः सर्वाः निर्देशिकाः कार्यविधयश्च स्वतः निष्क्रियाः सन्तीत्यतः पुनः तान् क्रियान्वेतुम् निर्णीतमस्तीति प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयेन ज्ञापितम् वर्तते। उपवेशेन चिकित्सा शिक्षायाः नियमनम् समन्वयम् प्रभावकारिणौ विधातुम् आयोगस्य उपाध्यक्षाय चिकित्सा शिक्षायाः विषये विश्वविद्यालयेभ्य प्रतिष्ठानेभ्य परिषद्भ्यश्च आवश्यकतायाः अनुसारेण निर्देशनम् दातुम् अधिकारः प्रत्यायोजितश्च वर्तते। संविधान संशोधन सम्बद्धम् विमर्शन पत्रम् निर्मातुम् संघटितेन कार्यदलेन विगत समये सर्वकारस्य विभिन्नानाम् आन्दोलनरत पक्षाणाम् च मध्ये सम्भूतानाम् संविधानाम् सहमतीनाम् च अध्ययनम् करिष्यते। कार्यदलेन संविधान संशोधनेन सह प्रत्यक्ष रूपेण अप्रत्यक्ष रूपेण च सम्बद्धानाम् संविधानाम् प्रतिलिपिम् प्रदातुम् सम्बद्धाः मन्त्रालयाः सर्वकारीय कार्यालयाश्च अनुरुद्धाः वर्तन्ते। प्रधानमन्त्रिणः राजनीतिक परामर्शदातु असीम साहस्य संयोजकत्वे संघटितेन कार्यदलेन संविधानस्य निर्माणस्य क्रियान्वयनस्य च क्रमे विभिन्नैः समुदायैः क्षेत्रैः सम्बद्धैः पक्षैश्च उत्थापितानाम् याचनानाम् सम्बोधनस्य कृते पूर्ववर्ती सर्वकारैः व्यक्तानाम् प्रतिबद्धतानाम् अध्ययनम् करिष्यते। सूचना संचार मन्त्री डाक्टर विक्रम तिमल सिन्हा निगदति संचार सूचना प्रविधि क्षेत्रम् प्रविधि मैत्री सम्पाद्य विकसयितुम् मन्त्रालयः प्रतिबद्धो वर्तते। मन्त्रालये ह्य उपविष्टे विषयगत समितेः उपवेशे मन्त्री डाक्टर तिमल सिन्हा अवोचत् जनतायाः सावधानीकरणस्य शिक्षितीकरणस्य च प्रमुख दायित्वम् संचार जगतः अस्तित्वतः लोक कल्याणकारी विज्ञापनानाम् नियमनस्य आवश्यकता वर्तते। उपवेशे मन्त्री डाक्टर तिमल सिन्हा प्राचीन विधिनाम् समयानुकूलतया परिमार्जनम् आवश्यकतायाः अनुसारेण नूतन विधिनाम् सुधारम् च प्राथमिकतायाम् संस्थाप्य संसदः प्रभावकारी विधिनाम् निर्माणकर्तृ संस्थायाः रूपेण सुदृढीकरणाय सर्वकारः प्रतिबद्धोऽस्तीति उदैरयत्। उपवेशे सुदूरपश्चिम प्रदेशस्य आन्तरविषय विधिमन्त्री हिरा सुनार सूचना संचार मन्त्रालयस्य सचिवः लक्ष्मी कुमारी बस्नेत विभिन्न विभागानाम् निकायानाम् च प्रमुखाः संचार क्षेत्रस्य विभिन्न विषयेषु विचारम् व्यक्तवन्तः।